उपवाच ब्रियाणे शाते प्रश्न कृतो लोकाहितं निपा आतवेत् सम्मतो पुंसां श्रोतव्यादिशुजपरः श्रोतव्यादिनिराजेन्द्र निरांशन्ति सहस्रशा आपश्यतामात्मदत्तं गृहेषु गृहमेदिना निद्रया ह्रियते नत्तं मबायिनः च भावया दिवाचाते हया राजन् कुटुम्बभरणेन वा देहापत्तकलत्रादिषु आत्मसन्निशसत्स्वपि तेषां प्रमत्तनिधनं पश्यन्नपि न पश्यति तस्माद् भारत सर्वात्मा भगवान् हृश्चरोहरि श्रोतव्या कीर्तितमश्च भयम् अगेन दिस वर्स तस्माद् भारत सर्वात्मा भगवान् ईश्वरोहरि श्रोतव्या कीर्तितमश्च स्मर्तव्याश्चेच्छता भयम् नेक्स्ट वर्स एतावान् सांख्ययोगाभ्याम् सधर्मा परिनिष्ठया जन्मलाभ परप्मां अन्ते नारायण स्मृतिः अगेन दिस वर्स एतावान् सांख्ययोगाभ्याम् सधर्मा परिनिष्ठया जन्मलाभ परप्मां अन्ते नारायण स्मृतिः अगेन दिस वर्स एतावान् सांख्ययोगाभ्याम् सर्वधर्मा परिनिष्ठया जन्मलाभ परप्मां ते नारायण स्मृति डिस्कस विच वर्स श्रोतव्यादिनी राजेन्द्र निनांग सन्ति सहस्र दिस वर्स वी डिस्कस्ड यस्टरडे that those who are materialistic persons, they have got hundreds and thousands of topics. And although we are in Krishna consciousness, because we are in the material world, sometimes we have to deal with many unnecessary talks. But mind that our unnecessary talks and others' unnecessary talks are not the same. Because we sometimes talk unnecessarily, but the aim is Krishna. Just like battlefield of Kurukshetra, the Bhagavad Gita begins धर्मक्षेत्री कुरुक्षेत्री समभीता जुजुत्सवा मामका पांडवाश्चैव किमकुर्वत संजय द टॉपिक्स बिगन फ्रॉम द वॉर फील्ड कुरुक्षेत्री धर्मक्षेत्र बट इट इज धर्मक्षेत्र वाई धर्मक्षेत्र इट इज बैटल फील्ड बिकॉज कृष्णा इज देयर Krishna is conducting the battle. Therefore it is Dharmakhetra. Dharmakhetra means religious place, pilgrimage.